सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. अल्पाक्षरमसन्दिग्धं सारवत् विश्वतो मुखम् अस्तोभम् अनवद्यं च सूत्रं सूत्रविदो विदुः. इत्युक्ते अयं श्लोकः किं वदति इति पश्यामश्चेत्, अत्र अस्मिन् श्लोके सूत्रम् इत्युक्ते किं, सूत्रस्य लक्षणानि कानि इति अयं श्लोकः वदति. सूत्रं कीदृशं भवेत्, अत्र सूत्रस्य लक्षणानि कानि इति अयं श्लोकः वदति. अस्मिन् श्लोके कानिचन पदानि सन्ति. सूत्रं कथं भवेत् इत्युक्ते, अल्पाक्षरम् इत्युक्ते कन्साइज्, असन्दिग्धम् अनाम्बिग्युवस्, सारवत् मीनिङ्ग्फुल्, विश्वतोमुखं यूनिवर्सल्, अस्तोभं नाट् हाल्टिङ्ग्, अनवद्यं वित् नो मिस्टेक्स्. इत्युक्ते अत्र सूत्रं साधारणतया फार्म्युला, आङ्ग्लभाषायां फार्म्युला इति वदामः. सूत्रमित्युक्ते किम् इति अयं श्लोकः वदति. अत्र किमर्थम् इमं श्लोकं स्मारितवती अद्य इत्युक्ते, अस्मिन् श्लोके सूत्रलक्षणानि उक्तानि अतः उक्तवती. भिन्नरीत्या वदामि चेत्, अहम् इमं श्लोकं पठितवती यतः अस्मिन् सूत्रलक्षणानि सन्ति, अस्मिन् सूत्रलक्षणानि सन्ति अतः उक्तवती, अथवा अहं श्लोकं पठितवती यतः अस्मिन् सूत्रलक्षणानि सन्ति इति वक्तुं शक्नुमः. इत्युक्ते अत्र अस्माकम् अद्यतनविषयः अस्ति अतः यतः पदद्वयम्. अतः इति एकम् अव्ययम्, यतः अपि अव्ययम्, किन्तु अव्ययम् इत्युक्ते तस्य लिङ्गवचनविभक्तिपरिवर्तनं न कदापि भवति, तथावदेव सर्वदा तिष्ठति. अपि च अत्र अतः योजयित्वा वाक्यं रचयामश्चेदपि तत्र कार्यकारणसम्बन्धः अस्ति. अत्र तस्मिन् वाक्ये कार्यं किं, कारणं किं, कारणं किं, कारणं तस्मिन् बहूनि सूत्रलक्षणानि उक्तानि, तदेव कारणं. कार्यं किम्, अहं श्लोकं पठितवती, तदेव कार्यम्. इत्युक्ते तत्र कार्यकारणसम्बन्धः अस्ति. यत्र कुत्रापि कार्यकारणसम्बन्धः अस्ति तदा अतः इति पदं योजयित्वा वाक्यरचनां कुर्मः. अपि च तत्र अद्यतनविषयः तु अतः अथवा अपि च यतः इति पदद्वयं. किन्तु वयं गते सप्ताहे कानिचन नूतनानि पदानि ज्ञातवन्तः. कानि कानि इत्युक्ते, आरभ्य, किन्तु, निश्चयेन, प्रायशः, किल, एतानि पदानि योजयित्वा एकं सम्भाषणं पठितवन्तः. तानि पदानि नूतनानि पदानि अस्माकं कृते, किन्तु वयं तत् सम्भाषणं पठित्वा अवगतवन्तः. अपि च चेत्, नो चेत् इति पदद्वयमपि वयं दृष्टवन्तः. तत्र चेत् नो चेत् योजयित्वा वाक्यरचना करणीया. अधुना गृहपाठविषये किञ्चित् चिन्तनं कृत्वा तदनन्तरम् अभ्यासपुस्तके इतोपि किं दत्तमस्ति तस्मिन् विषये चिन्तनं कुर्मः. उत्तमम्. अधुना कादम्बरी भगिनी, भवती वदतु वाक्यानि.
अस्तु. अद्य आरभ्य पाठशालां न पाठशालां न अस्ति. प्रपरह्यः आरभ्य रामः सत्यं वदति. गोपालः अग्रिमवारः आरभ्य सः निश्चयेन गृहपाठं करोति. अहं भवत्याः गृहम् आगच्छामि, किन्तु विलम्बेन आगच्छामि. कीरवाणी संस्कृतं पठति, किन्तु वक्तुं न शक्नोति. निश्चयेन सर्वे भारतीयः भागवतं पठनीयम्.
भारतीयाः अस्तु उत्तमम्.
एतत् भवत्याः ज्ञानं किल? अहं भवत्याः पार्श्वे न आगच्छामि किल? अद्य भोजनं सम्यक् अस्ति नास्ति खलु अथवा किल? अहं निश्चयेन संस्कृतं पठामि. नो चेत् मम जीवनं न सम्यक् भवति.
उत्तमानि वाक्यानि, उत्तमं, सम्यक् सम्यक् भगिनी. अग्रे अत्र लक्ष्मी भगिनी भवती श्रावयतु.
अस्तु भगिनि. श्वः आरभ्य अहम् एकसप्ताहपर्यन्तं कार्यालयं न गमिष्यामि. अद्य मम अवकाशः न भविष्यति. श्वः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि. अहं चत्वारि पत्राणि प्रेषितवती, किन्तु उत्तरम् एकमपि न आगतम्. सर्वे सत्कार्यं कुर्वन्ति चेत् देशस्य उन्नतिः भवति. मूल्यं न्यूनम् अस्ति चेत् फलानि क्रीणामि, नो चेत् न क्रीणामि. एतत् बहु सुन्दरम् अस्ति किल? निश्चयेन सः आगतवती इति उक्तवती, किन्तु आगतवती प्रायशः किमपि मुख्यकार्यम् आगतम्.
मम गृहम्
अहं तावदेव.
उत्तमं भगिनि. अनन्तरं राजीवसिंह महोदय भवान् श्रावयतु.
आं भगिनि. गते सप्ताहे अहं संस्कृतं वर्गं न उत्तिष्ठयामि, किन्तु ध्वनिमुद्रणं शृणोमि.
अत्र गते सप्ताहे न आगतवान् इति वक्तुम् इच्छति वा?
न आगतवान्.
गते सप्ताहे इत्युक्ते भूतकालार्थे अस्ति. गते सप्ताहे अहं संस्कृतकक्ष्यां न गतवान्. केवलं वदतु.
किन्तु ध्वनिमुद्रणं शृणोमि.
शृणोमि वा अथवा भवान् श्रुतवान् वा?
श्रुतवान् वा?
श्रुतवान् इत्युक्ते तवतु प्रत्ययान्तरूपाणि योजयित्वा भूतकालार्थे वक्तुं शक्नुमः. वदतु.
प्रायशः वर्तमानवर्षे अहं भारतदेशे न गच्छामि, किन्तु निश्चयेन आगामिवर्षे गमिष्यामि. ऐ यूस् त्री वर्ड्स् इन् देट्
सेण्टेन्स्. तस्मिन् वाक्ये त्रीणि पदानि योजितानि.
अद्य प्रातः आरभ्य बहूनि कार्याणि.
अद्य प्रातः आरभ्य बहूनि कार्याणि.
आं भगिनि. अहं समये उत्तिष्ठयामि चेत् सूर्योदये पश्यामि, नो चेत् न पश्यामि.
सूर्योदयं पश्यामि.
सूर्योदयं पश्यामि. अहं समये कार्यालये गच्छामि चेत् मित्रं मिलिष्यामि, न चेत् न मिलिष्यामि.
तत्र यदि भवान् तत्र भविष्यत्कालार्थे वक्तुमिच्छति चेत् मेलिष्यामि,
मेलिष्यामि,
मेलिष्यामि इति पदमस्ति.
आं भगिनि,
अस्तु, उत्तमं महोदय. अनन्तरम् अत्र 913907 कस्य दूरवाणीसङ्ख्या, नामोच्यताम्. अस्तु महोदय, अस्तु, भवान् श्रावयतु वाक्यानि.
आरभ्य, अद्य आरभ्य अहं वयं सह गृहपाठं करिष्यामः. किन्तु स्वयम् एव न कर्तुं शक्यते. अहं निश्चयेन पुनः संस्कृतकक्षायां जॉइन प्रयत्नं करिष्यामि,
प्रयत्नं करिष्यामि
पठितुं. प्रायशः प्रायशः श्वः अहं कार्यालयं न गमिष्यामि. वयं सर्वे कक्षायां struggling. we have all come here, isn't it?
महोदय, तत् किं कर्तव्यम् इत्युक्ते, अधुना यदि भवान् वाक्यरचनां कर्तुमिच्छति चेत् अधुना किञ्चित् तत्र क्लेशः भवति. पूर्वमेव तत्र वाक्यानि लिखित्वा सिद्धाः भवति चेत् सम्यक् अस्ति. इत्युक्ते अत्र पूर्वमेव वाक्यानि लिखित्वा अधुना श्रावयति चेत् सम्यक् भवति. अस्तु, चिन्ता मास्तु. अधुना अग्रे गत्वा वयं अभ्यासपुस्तके इतोपि किमस्ति इति एकवारं पश्येम. गते सप्ताहे किञ्चित् चेत् नो चेत् अस्मिन् विषये वयं बहूनि उदाहरणानि स्वीकृत्य पठितवन्तः स्मः. अत्र अद्यतनविषयः तु यतः, यतः इत्युक्ते अत्र अतः इत्युक्ते तदर्थम् अथवा तस्मात् कारणात् अथवा तेन कारणेन, तादृशरीत्या अतः इति पदमस्ति. किन्तु यतः, यतः इति अन्यत् पदम्. अत्र अहं संस्कृतकक्ष्यां न आगतवती यतः मम आरोग्यं सम्यक् नास्ति. इत्युक्ते किमर्थं चेत् अहं संस्कृतकक्ष्यां न आगतवती, किमर्थं चेत् मम आरोग्यं सम्यक् नास्ति. अत्र यतः इति पदमस्ति. यतः इत्युक्ते तस्मात् कारणात्, किमर्थं चेत् इति अर्थः अस्ति. अत्र उदाहरणानि स्वीकृत्य एकवारं परिशीलनं कुर्मः, तदनन्तरम् अहं किञ्चित् विवृणोमि तस्मिन् विषये. अधुना अत्र 33.1 भागे कस्मिन् पुटे, अत्र एकसप्ततितमं पुटं पश्यन्तु. अधुना तं पुटे किमस्ति इति एकवारं पश्येम. कादम्बरी भगिनी, भवती पठति वा अत्र 33.1?
अस्तु भगिनि. धनम् अस्ति चेत्
न न अत्र अत्र पश्यतु 33.1 इत्युक्ते अत्र रक्तवर्णैः लिखितानि पदानि सन्ति उदाहरणं दृष्ट्वा.
एतस्य कोष्टकस्य साहाय्येन वाक्यानि लिखन्तु.
भगिनि अत्र नास्ति, पश्यतु अत्र 33. ओ अत्र मुद्रणदोषः अस्ति वा. 33.3 यतः आरभ्य पठतु.
उदाहरणं दृष्ट्वा तदनुगुणं वाक्यानि परिवर्तयतु.
अत्र अस्मिन् वाक्ये कानिचन पदानि सन्ति, किञ्चित् वदति वा अत्र एकमेकं पदं स्वीकृत्य किञ्चित् वदतु अत्र रूपं कीदृशं रूपम् अस्ति उदाहरणम्. उदाहरणं कीदृशं रूपम्?
एक्साम्पल्.
उदाहरणम् इत्युक्ते एक्साम्पल्. उत्तमम्. अत्र उदाहरणम् इति पदं द्वितीयविभक्त्यन्तं रूपम्. अपि च साधारणतया वयं अस्माकं जिज्ञासा अस्ति किम् एतत् पदं कथम् आगतं, कथं निष्पन्नं भवत् इति वयं किञ्चित् अस्माकं जिज्ञासा अस्ति एव. अत्र किञ्चित् वदामि. उदाहरणम् इति पदमस्ति तत्र. तत् पदं कथम् आगतम् इत्युक्ते उत् एकः उपसर्गः, आ उत् योगः आयोगः हृ इति धातुः, अनन्तरं ल्युट् इति एकः प्रत्ययः. उत्योगः आयोगः हृ योगः ल्युट् इति वदामः. अत्र दृष्ट्वा इति पदमस्ति. भवती श्रुतवती वा, जानाति वा दृष्ट्वा इति कीदृशं पदम्?
प्रत्ययः रूपं.
त्वा प्रत्ययान्तरूपम्. उत्तमम्. अत्र धातुः अस्ति दृश् इति धातुः, दृश् धातोः रूपमेव दृष्ट्वा अस्ति. दृश्योगः क्त्वा इति रूपं. तत्र किम् अभवत् इत्युक्ते कानिचन सन्धिकार्याणि भवन्ति, अतः तस्य रूपं दृष्ट्वा इति भवति. अनन्तरं तृतीयपदमस्ति तदनुगुणम् इति पदमस्ति. तदनुगुणम् अत्रापि तत् प्लस् अनुगुणम् इति पदद्वयमस्ति. तत् अस्ति तत्र सन्धिः भवति तदनुगुणं. तत्र तकारस्य स्थाने दकारः आगच्छति. तदनुगुणम् इति भवति. वाक्यानि परिवर्तयतु इति पदमस्ति. परिवर्तयतु लकारः कः? कोऽपि वदतु. लोट् लकारः. उत्तमम्. अत्र परिवर्तयतु इति पदमस्ति. परिवर्तयतु इति पदं कथम् आगतम् इत्युक्ते तत्र परि इति उपसर्गः अस्ति. अग्रे गत्वा वयम् उपसर्गः इत्युक्ते कः तस्मिन् विषये पठिष्यामः, किन्तु परि इति उपसर्गः अस्ति. वृत् इति धातुः, वृत् धातुतः वर्तते इति रूपम् आगच्छति. अपि च परिवर्तयतु इति लिखितमस्ति इत्युक्ते तत्र निजन्तरूपं परिवर्तयति इति निजन्तरूपमस्ति. साधारणरूपं वर्तते, किन्तु निजन्तरूपं वर्तयति. किन्तु अत्र लोट् लकारः दत्तमस्ति. उत्तमम्. उदाहरणं दृष्ट्वा तदनुगुणं वाक्यानि परिवर्तयतु इति लिखितमस्ति. उत्तमम्. अत्र अनुगुणम् इत्युक्ते तदनुसृत्य, इत्युक्ते तादृशरीत्या एव अन्यानि वाक्यानि लेखनीयानि. उत्तमम्. अत्र उदा इति दत्तमस्ति. उदा इति लिखितमस्ति चेत् तत्र किं वक्तव्यम्? उदाहरणार्थम् इति वक्तव्यम्. इत्युक्ते अत्र संक्षिप्तरूपेण लिखितमस्ति, उदा इति लिखितमस्ति, किन्तु तत्र किं वक्तव्यम्? उदाहरणार्थम् इति वक्तव्यम्. प्रथमं वाक्यं पठतु.
आरोग्यं सम्यक् नास्ति, अतः सः चिकित्सालयं गच्छति.
अवगतवती वा वाक्यस्य को अर्थः?
आम्.
यदि भवत्याः आरोग्यं सम्यक् नास्ति तदा भवती किं करोति?
चिकित्सालयं गच्छति.
गच्छामि. उत्तमं. वयं सर्वे अपि तदेव कुर्मः. अतः अत्र आरोग्यं सम्यक् नास्ति, अतः चिकित्सालयं गच्छति. तदेव वाक्यं किञ्चित् परिवर्त्य लिखामश्चेत् कथं लिखामः? पठतु.
आरोग्यं सम्यक् सः चिकित्सालयं गच्छति यतः आरोग्यं सम्यक् नास्ति.
इत्युक्ते तत्र अत्र भेदः कः? तत्र प्रथमं वाक्यं पश्यतु, द्वितीयं वाक्यमपि पश्यतु. अत्र किम् अभवत्? कीदृशं परिवर्तनम् आगतम् अत्र?
द्वितीयवाक्यं प्रथमवाक्यम् अभवत्, प्रथमवाक्यं द्वितीयवाक्यम् अभवत्.
उत्तमम्. इत्युक्ते अत्र पश्यतु, आरोग्यं सम्यक् नास्ति इति, आरोग्यं सम्यक् नास्ति इति कारणम्. तत्र कारणं किम्? आरोग्यं सम्यक् नास्ति. तत्र कार्यं किं किं? तदर्थम् इत्युक्ते तस्मात् कारणात् सः चिकित्सालयं गच्छति. कार्यं चिकित्सालयस्य गमनम्, आरोग्यं सम्यक् नास्ति इति कारणम्. किन्तु अत्र यतः योजयित्वा वदामश्चेत् कथं वदामः? सः चिकित्सालयं गच्छति इत्युक्ते अत्र अत्र कार्यं, प्रथमं वाक्यं कार्यमस्ति, द्वितीयं वाक्यं कारणमस्ति. किञ्चित् भिन्नरीत्या उक्तमस्ति. तदेव भेदः अत्र. वदतु, अत्र कारणवाक्यं द्वितीये वाक्ये अत्र सः चिकित्सालयं गच्छति यतः आरोग्यं सम्यक् नास्ति. इत्युक्ते अत्र कार्यं, प्रथमं वाक्यं कार्यमस्ति, द्वितीयं वाक्यं कारणम्. अपि च प्रथमवाक्यं करोतु.
विद्युत् नास्ति अतः दीपः न ज्वलति.
अत्र कारणं किं? कारणं किं?
विद्युत् नास्ति.
उत्तमं. कार्यं?
दीपः न ज्वलति.
अधुना परिवर्तयतु वाक्यं.
दीपः न ज्वलति यतः विद्युत् नास्ति.
यतः विद्युत् नास्ति. उत्तमं. तद् तादृशरीत्या एव वक्तव्यम्. अग्रिमं वाक्यं लक्ष्मी भगिनी भवती करोतु.
अद्य गणेशोत्सवः, अतः विद्यालयस्य विरामः अस्ति. विद्यालयस्य विरामः अस्ति यतः अद्य गणेशोत्सवः.
अत्र कार्यं किं? कारणं किम्?
कार्यं विद्यालयस्य विरामः अस्ति, कारणम् अद्य गणेशोत्सवः.
उत्तमः. गणेशोत्सवः. अत्र किञ्चित् इतोपि चिन्तनं कुर्मः. पूर्वस्मिन् वाक्ये विद्युत् इति पदमस्ति. विद्युत् इति पदं, तस्य लिङ्गं किं? कोऽपि वदति वा अत्र? विद्युत् इति पदं स्त्रीलिङ्गं स्त्रीलिङ्गपदं तदर्थं पृष्टवती. विद्युत् इति पदं स्त्रीलिङ्गपदं. विद्युत् इति पदमपि समीचीनं. विद्युद् दकारः अन्ते दकारः अस्ति चेदपि समीचीनमेव. अत्र पूर्वस्मिन् वाक्ये चिकित्सालयः इति पदमस्ति किन्तु वाक्ये द्वितीयविभक्त्याम् अस्ति. चिकित्सालयः इति वदामश्चेत् तत्र देवालयः इति वदामश्चेत् देवस्य आलयः इति वदामः. इत्युक्ते समस्तपदं तत्र समासः अस्ति. चिकित्सालयः इत्युक्ते चिकित्सायाः आलयः इति वदामः. अपि च साधारणतया वयं सामान्यपदमेव आरोग्यम् इति पदं. किन्तु आरोग्यम् इति पदं कथमागतम् इति पश्यामश्चेत् अत्र अरोगस्य भावः रोगः अरोगः अरोगस्य भावः एव आरोग्यम् इति वदामः. अत्र गणेशोत्सवः इत्यपि समस्तपदं. गणेशस्य उत्सवः इति वदामः. अत्र विद्यालयस्य विरामः अस्ति यतः अद्य गणेशोत्सवः. विरामः इत्युक्ते किम् भगिनी वदतु?
नो क्लास् इट्स् क्लोज्ड्
इत्युक्ते हालिडे
हालिडे
हालिडे अस्ति. साधारणं पदमेव. अत्र एकं क्रियापदमपि अस्ति संस्कृतभाषायां विरमति तथा विरमति इति क्रियापदमस्ति तत्र. अत्र विरामः इत्युक्ते हालिडे अथवा लीव् अथवा विरामः इत्युक्ते फुल् स्टाप् इति अर्थः अपि अस्ति. तत्र बहवः अर्थाः सन्ति किन्तु अत्र अस्मिन् वाक्ये सन्दर्भं दृष्ट्वा वदामश्चेत् विद्यालयस्य विरामः इत्युक्ते हालिडे फार् स्कूल् इति वदामः. किमर्थं हालिडे फार् स्कूल्? अद्य गणेशोत्सवः इति कारणतः. अतः इत्युक्ते तस्मात् कारणात् तदर्थम् इति वदामः. उत्तमं. राजीवसिंह महोदय भवान् पठतु अग्रिमं वाक्यं.
सम्यक् न पठितवान् अतः सः परीक्षायाम् अनुत्तीर्णः. सः परीक्षायाम् अनुत्तीर्णः यतः सम्यक् न पठितवान्.
अत्र पदमस्ति परीक्षायाम् इति पदम्. अत्र परीक्षायां कोऽपि वदति वा अत्र रूपं किम्?
सप्तमी विभक्ति एकवचनं.
उत्तमं. लिङ्गं?
नपुंसकलिङ्गम्. दिस् इस् स्त्रीलिङ्गम्.
उत्तमं. स्त्रीलिङ्गम्. अत्र प्रथमाविभक्त्यन्तरूपं परीक्षा
परीक्षा
आकारान्तपदम्. उत्तमम्. अत्र अत्र वाक्यं वाक्यस्य को अर्थः इति वयं पश्यामश्चेत् अत्र किं लिखितमस्ति? सः बालकः. सः इत्युक्ते बालकः कोऽपि
बालकः
पुरुषः. सः परीक्षायाम् अनुत्तीर्णः. अनुत्तीर्णः पश्यतु अत्र पदम्. उत्तीर्णः नास्ति अनुत्तीर्णः इति वदामः. तत्र तत्रापि समासः अस्ति. समासस्य नाम अस्ति नञ् तत्पुरुषसमासः इति वदामः. न उत्तीर्णः अनुत्तीर्णः इति वदामः. तदपि समस्तपदम्. अत्र सः बालकः परीक्षायाम् अनुत्तीर्णः. किमर्थम्? किमर्थं चेत् सः न पठितवान्. अत्र अत्र यतः योजयित्वा वदामश्चेत् सः परीक्षायाम् अनुत्तीर्णः यतः सः सम्यक् न पठितवान् अतः. उत्तमम्. अत्र अनुत्तीर्णः इति पदं पश्यामश्चेत् अत्र उत्तीर्णः इति पदम् उत् उपसर्गपूर्वकः त्रु इति धातुः अस्ति अपि च क्ताप्रत्ययान्तरूपं तरति साधारणतया वयं शृणुमः एकं पदं नदीं तरामि तादृश तरति तत्र धातुः अस्ति दीर्घरूकारान्तधातुः त्रु इति वदामः दीर्घरूकारान्तधातोः रूपमेव तरति अत्र तृधातोः कथान्तरूपं तीर्ण इति भवति उत्तीर्ण उत्तीर्ण इति पदं त्रिषु लिङ्गेषु भवति उत्तीर्णः उत्तीर्णम् उत्तीर्णा तादृशरीत्या त्रिषु लिङ्गेषु रूपाणि भवन्ति अत्र सः अनुत्तीर्णः इत्युक्ते सः इति तस्य विशेषणमस्ति अनुत्तीर्णः इति उत्तमम् अग्रिमं पठतु अग्रिमं करोतु महोदय
संस्कृतं सुलभम् अतः अहं संस्कृतं पठामि
एतत् सत्यं वा अस्तु उत्तमं संस्कृतं सुलभं वदतु
अहं संस्कृतं पठामि यतः संस्कृतं सुलभम्
अत्र कार्यं किं कारणं किम्
कार्यम् इस् अहं संस्कृतं पठामि कारणम् इस् संस्कृतं सुलभम्
उत्तमं संस्कृतं सुलभं वा अथवा कष्टं वा तत्र इत्युक्ते अभ्यासः आवश्यकः एव किन्तु संस्कृतं तु मधुरं मधुरा भाषा संस्कृतं तदपि तद् अहं वक्तुं शक्नोमि किन्तु सुलभमस्ति वा न वा इति तत्र नित्यं अभ्यासं कुर्मः चेत् सुलभमेव नो चेत् किञ्चित् क्लेशकरं भवति अस्तु अनन्तरं साईकृष्णमहोदय भवान् पठतु अग्रिमं वाक्यम्
उदयनः अन्यां भाषां न जानाति अतः संस्कृतेन वदति उदयनः संस्कृतेन वदति यतः अन्यां भाषां न जानाति कारणम् अन्यभाषाणां न जानाति संस्कृतं वदति
अत्र वदतु महोदय
what is that word I forgot karanam and
karyam
karyam sorry
karyam uttamam atra samskrutam sanskrutam iti ekam padam asti tatra sanskrutam iti padam api samasta padam iti vadamah tatra api samasah asti yadi samasah asti chet vigraha vakyam kadam vadamah samyak krutam samskrutam इति वदामः यत्र कुत्रापि सम्यक् कृतं संस्कृतं सुभाषितम् इति पदं साधारणं पदमेव सुभाषितम् इति पदम् अपि समस्तपदं तत्र कथं वदामः शोभनं भाषितं सुभाषितम् इति भवति इत्युक्ते अत्र संस्कृतभाषायां 22 द्वाविंशतिः उपसर्गाः सन्ति तेषु एकः अस्ति सम् इति उपसर्गः अत्र सम् इति उपसर्गः अस्ति अनन्तरम् अत्र पश्यतु संस्कृतेन वदति इति लिखितमस्ति संस्कृतेन रूपं किं
तृतीय
साधारणतया प्रादेशिकभाषासु किं वदामः संस्कृत अत्र तृतीया विभक्ति तृतीयाविभक्तेः रूपं दत्तमस्ति इत्युक्ते अहं संस्कृतं वदामि अथवा अहं संस्कृतेन वदामि इति वक्तव्यं नो चेत् तत्र संस्कृते वदामि इति न वक्तव्यं सप्तमीविभक्तिरूपं तत्र न वक्तव्यं. तृतीयाविभक्तिरूपम् अथवा अहं संस्कृतं वदामि अथवा संस्कृतेन वदामि अथवा संस्कृतभाषया वदामि, एतानि वाक्यानि समीचीनानि. सः अत्र एकः पुरुषः अस्ति, तस्य नाम अस्ति उदयनः. सः संस्कृतेन वदति, किमर्थम् वदतु महोदय, किमर्थं
किमर्थम् अन्यां भाषां न जानाति?
अत्र अन्यां भाषाम् इति पदमस्ति, तत्र रूपं किम्?
अन्यां भाषां द्वितीया.
द्वितीया, किमर्थं द्वितीया?
कर्मपदम्. कर्मपदम्,
उत्तमं. कर्मपदम् इत्युक्ते, कर्मपदम् इत्युक्ते तत्र जानाति इति पदम् अस्ति. जानाति इति पदं ज्ञाधातुतः आगतम्. अत्र ज्ञाधातुः सकर्मकधातुः, अतः कर्मपदं स्वीकरोति. अतः अन्यां भाषां न जानाति सः. उत्तमम्. अग्रिमं वाक्यं पठतु.
तस्य मूल्यम् अधिकम्, अतः तत् वस्त्रं मास्तु. तत् वस्त्रं मास्तु यतः तस्य मूल्यम् अधिकम्.
उत्तमम्. ईदृशं सम्भाषणं कथं साधारणतया वयम् आपणं गच्छामश्चेत् तत्र एतादृशरीत्या एव वयं व्यवहारं कुर्मः. तत्र आपणे ईदृशसम्भाषणमेव कुर्मः. अत्र तत् वस्त्रं मास्तु, किमर्थं चेत् तस्य मूल्यमधिकम्, अतः तत् वस्त्रं मा क्रीणातु इति अर्थः अत्र. उत्तमम्. इत्युक्ते अत्र वाक्येषु अतः इति पदं योजयित्वा वाक्यानि लिखितानि सन्ति, किन्तु वयं तस्य परिवर्तनं कृत्वा कार्यं, प्रथमं वाक्यं कार्यं, द्वितीयं वाक्यं कारणं, तादृशरीत्या वयं वाक्यद्वयं स्वीकृत्य यतः इति पदं योजयित्वा वाक्यरचनं कृतवन्तः. अधुना वयम् अन्यानि वाक्यानि किञ्चित् अभ्यासं कुर्मः, अन्यानि वाक्यानि रचयितुं प्रयत्नं कुर्मः. अहं वाक्यस्य प्रथमभागं वदामि, भवन्तः किञ्चित् प्रयत्नं कृत्वा द्वितीयं भागं वदन्तु. सः बालकः प्रतिदिनं संस्कृताभ्यासं करोति, अतः सः संस्कृतेन सम्यक् वदति. सः बालकः संस्कृतेन सम्यक् वदति, किमर्थं? सः प्रतिदिनं संस्कृताभ्यासं करोति. अत्र यतः योजयित्वा वदतु. कादम्बरी भगिनी वक्तुं शक्नोति वा? अत्र वाक्यं यतः योजयित्वा वाक्यं वदतु, नो चेत् भवती एव एकं वाक्यं वदतु यतः योजयित्वा. भगिनी अस्ति वा? अस्तु. अनन्तरम् अत्र लक्ष्मी भगिनी भवती वक्तुं शक्नोति वा?
अहं वदामि भगिनि.
वदतु.
यतः अहं
नो चेत् अहं प्रथमभागं वदामि. अहं प्रतिदिनं संस्कृताभ्यासं करोमि, अतः संस्कृतेन सम्यक् वदामि इति वाक्यद्वयम्. अधुना यतः योजयित्वा किञ्चित् प्रयत्नं करोतु. अहं संस्कृतेन वदामि, अहं संस्कृतेन सम्यक् वदामि यतः.
अहं संस्कृतेन सम्यक् वदामि यतः अहम् अभ्यासं करोमि.
उत्तमं, तदेव, तावदेव, तत्र किमपि काठिन्यं नास्ति. उत्तमम्. अनन्तरं लक्ष्मीभगिनी, अहं क्रीडितुं न शक्नोमि, मम शिरोवेदना अस्ति.
मम शिरोवेदना अस्ति
वदतु.
यतः अहं क्रीडितुं न शक्नोमि.
तत्र कार्यं किं, कारणं किम्? अहं क्रीडितुं न शक्नोमि.
अहं क्रीडितुं न शक्नोमि कार्यं शिरोवेदना अस्ति.
कारणम्. अधुना यतः योजयित्वा वदतु.
शिरोवेदना अस्ति यतः अहं क्रीडितुं न शक्नोमि.
अत्र पश्यतु, अहं क्रीडितुं न शक्नोमि यतः मम शिरोवेदना अस्ति. तादृशरीत्या वक्तव्यम्. उत्तमम्. अपि च अहं वदामि, विद्युत् व्यजनं न चलति, विद्युत् नास्ति. तत्र यतः योजयित्वा वदतु. विद्युत् व्यजनं न भ्रमति अथवा न चलति. कारणमस्ति विद्युत् नास्ति.
विद्युत् नास्ति यतः व्यजनं न भ्रमति.
अत्र विद्युत् नास्ति अतः विद्युत् व्यजनं न भ्रमति. अतः योजयित्वा वदामः चेत्, विद्युत् नास्ति अतः विद्युत् व्यजनं न चलति अथवा न भ्रमति. किन्तु यतः योजयित्वा वदामश्चेत् कथं वक्तव्यं? विद्युत् व्यजनं न चलति यतः विद्युत् नास्ति इति वक्तव्यम्. उत्तमम्. अनन्तरम् अत्र राजर्षिन् महोदय, भवान् किञ्चित् प्रयत्नं करोतु. सा बालिका सम्यक् सङ्गीतं गायति, कारणं किं? सा नित्यम् अभ्यासं करोति.
नित्यम् अभ्यासं करोति. सा नित्यम् अभ्यासं करोति अतः सा सम्यक् सङ्गीतं गायति.
उत्तमम्. अतः योजयित्वा उत्तमरीत्या उक्तवान्. किन्तु अधुना यतः योजयित्वा वदतु.
सा बालिका सम्यक् सङ्गीतं गायति यतः सा नित्यं सङ्गीतम् अभ्यासति.
नित्यम् अभ्यासं करोति. उत्तमम्. तथा एव वक्तव्यम्. तथा अपि च अत्र महिलाः लोकयाने उपवेष्टुं शक्नुवन्ति. लोकयाने बहवः आसन्दाः सन्ति. महिलाः लोकयाने उपवेष्टुं शक्नुवन्ति, उपविशन्ति. महिलाः लोकयाने उपविशन्ति. तत्र लोकयाने बहवः आसन्दाः सन्ति. अत्र अतः योजयित्वा अपि च यतः योजयित्वा वदतु.
लोकयाने बहवः आसन्द अस्ति सन्ति अतः यतः महिलाः लोकयाने
अतः
महिला आई गॉट कंफ्यूज्ड इन द सेंटेंस महिला लोकयाने उपविशन्ति
इत्युक्ते अत्र लोकयाने बहवः आसन्दाः सन्ति अतः महिलाः लोकयाने उपविशन्ति अथवा उपवेष्टुं शक्नुवन्ति नो चेत् यतः योजयित्वा वक्तुमिच्छामश्चेत् महिलाः लोकयाने उपविशन्ति तत् कार्यं किम् तत्र कारणं किम् इत्युक्ते लोकयाने बहवः आसन्दाः सन्ति उत्तमम् अपि च अत्र महिलाः वस्त्राणि प्रक्षालयन्ति अत्र जलमस्ति
जलमस्ति जलमस्ति अतः महिला प्रक्षालयं करोति
इत्युक्ते अत्र जलमस्ति अतः महिलाः वस्त्राणि प्रक्षालयन्ति जलमस्ति इति कारणतः महिलाः वस्त्राणि प्रक्षालयन्ति तत्र यतः योजयित्वा वदामश्चेत् महिलाः वस्त्राणि प्रक्षालयन्ति यतः तत्र जलमस्ति
जलमस्ति
उत्तमं तथा एव अत्र वृष्टिः नास्ति वर्षा नास्ति अतः सस्यानि न वर्धन्ते वृष्टिः नास्ति वृष्टिः इत्युक्ते वर्षा नास्ति अतः सस्यानि न वर्धन्ते सस्यानि इत्युक्ते लघुवृक्षः अत्र वाक्यं यतः योजयित्वा कथं वक्तव्यम्
यतः अतः सस्यानि न वर्धन्ते यतः वृष्टिः नास्ति
वृष्टिः नास्ति उत्तमं तदेव यतः वृष्टिः नास्ति तत्र कारणं वृष्टिः नास्ति कार्यं तु सस्यानि न वर्धन्ते अपि च अद्य मम कार्यालये बहु कार्यमस्ति अतः न अत्र मम बहु कार्यमस्ति अतः किं वदामि कार्यालये बहु कार्यमस्ति अतः कार्यालयं शीघ्रं गन्तव्यम् ऐ हाव् लाट् आफ़् वर्क् इन् आफीस् अतः ऐ हाव् टु गो रियलि अर्लि अद्य मम कार्यालयं
शीघ्रं वदतु अहं कार्यालयं शीघ्रं
गन्तव्यं
यतः मम कार्यालयं बहूनि कार्याणि सन्ति
मम कार्यालये बहूनि कार्याणि सन्ति उत्तमं तथा एव वक्तव्यम् अत्र कादम्बरी भगिनी अहं किञ्चित् वदामि अत्र एतत् पुस्तकं बहु उत्तमम् अतः अहं पठामि
एतत् पुस्तकं सम्यक्
वदतु एतत् पुस्तकं सम्यक् अस्ति अतः अहं पठामि वदतु
एतत् पुस्तकं सम्यक् अस्ति अतः अहं पठामि
इति वाक्यमस्ति किन्तु परिवर्तनं कृत्वा वदतु यतः योजयित्वा
यतः एतत् पुस्तकम् अहं पठामि.
तत्र कथं वक्तव्यं पश्यतु. एतत् पुस्तकं सम्यक् अस्ति अतः अहं पठामि इति वाक्यं तत्र दत्तमस्ति. किन्तु किञ्चित् परिवर्तनं कृत्वा यतः योजयित्वा वदामश्चेत् अहम् एतत् पुस्तकं पठामि यतः पुस्तकं सम्यक् अस्ति. वै बिकास्, यतः इत्युक्ते वै बिकास् किमर्थं चेत् इति अर्थः. इत्युक्ते अहम् एतत् पुस्तकं पठामि यतः एतत् समीचीनं पुस्तकम् इति. उत्तमम्. अनन्तरं अहम् अस्वस्था अस्मि अतः संस्कृतकक्ष्यां न आगतवती. तत्र कारणमस्ति कार्यमपि अस्ति. यतः योजयित्वा वदतु.
अहं पुनः
अहं स्त्रीलिङ्गे इत्युक्ते भवती बालिका, तदर्थम् अहम् अस्वस्था अस्मि अतः संस्कृतकक्ष्यां न आगतवती.
अस्तु. संस्कृतकक्ष्यां न आगतवती यतः अहम् अस्वस्था अस्मि.
उत्तमम्. तथा एव वक्तव्यम्. उत्तमम्. अधुना अत्र लक्ष्मी भगिनी अहं वाक्यं वदामि. मम मित्रम् आगतवती अतः अहं सन्तुष्टा अस्मि.
अहं सन्तुष्टा अस्मि यतः मित्रम् आगतवती.
उत्तमं. तथा एव वक्तव्यम्. उत्तमं. यतः योजयित्वा किञ्चित् अभ्यासं कुर्मः. अत्र अहं करपत्रद्वयं प्रेषितवती गीतासोपानं पुस्तकतः. गीतासोपानम् इति प्रथमभागः, तस्मिन् पुस्तके अपि कानिचन वाक्यानि सन्ति. तानि वाक्यानि अपि वयं परिशीलयामः अधुना. तत्रापि यतः अतः तत्र अभ्यासः अस्ति. भवतां पार्श्वे पुस्तकमस्ति चेत् समीचीनमेव, नो चेत् करपत्रं पश्यन्तु. अत्र साईकृष्णमहोदय भवान् पठति वा अत्र प्रथमं करपत्रम्?
आं भगिनि, उच्चैः पठत. भीमः पाके आसक्तः अतः वल्वः भूत्वा पाक्शालां गतः. भीमः पाके आसक्तः अतः वल्वः भूत्वा पाकशालां गतः.
अत्र एकवारं पश्यतु, अहं किञ्चित् विवृणोमि. भीमः भीमं जानाति वा? महाभारते भीमः, अर्जुनः, तादृश पञ्चपाण्डवाः सन्ति. तत्र भीमः अस्ति. भीमः पाण्डवेषु तत्र द्वितीयः एव भीमः. भीमः, तस्य आसक्तिः कुत्र अस्ति? भीमस्य आसक्तिः पाके. पाके इत्युक्ते पश्यतु, पाकः, पच् धातोः रूपमेव पाकः. पाकशाला इत्युक्ते किचन्, पच् धातोः रूपं पाकः. किन्तु पचति, भीमः पचति. किं पचति? भोजनं पचति. तादृशानि वाक्यानि. पचति इति क्रियापदमस्ति, किन्तु अत्र पाकः. तस्य आसक्तिः कुत्र अस्ति? आसक्तिः इत्युक्ते हिज् इण्ट्रेस्ट्. भीमस्य आसक्तिः अत्र पश्यतु, आसक्तः इति पदमस्ति, किन्तु एकम् अन्यत् पदमपि अस्ति, आसक्तिः. अत्र आसक्तः इति दत्तमस्ति. भीमः इति पदस्य विशेषणम् अस्मिन् वाक्ये आसक्तः. Bhima was interested in.
Okay. Bhimaha pake asaktaha. Ataha valvaha bhutva pakashalam gataha. Valvaha.
Atra pashyatu mahodaya. Atra padam kim asti chukte vallavaha.
Okay.
Vallavaha ichukte yada te sarve aranyavasanantaram ajnatavasam gatavantaha tatra tasya nama bhimasya nama vallavaha.
Okay.
Mahabharate etat sarvam asti. Bhimasya nama ajnatavasasamaye tasya nama vallavaha. तस्य आसक्तिः पाककार्ये आसक्तिः अस्ति भीमस्य अतः सः वल्लवः भूत्वा पाकशालां गतः इत्युक्ते सः पाकशालायां पाकं कृतवान् पाकशालां गतवान् अत्र गतः इति पदं क्तान्तरूपम् अस्ति अत्र इत्युक्ते अत्र तस्य आसक्तिः पाके अस्ति इति कारणतः कारणं किम् तस्य आसक्तिः पाके अस्ति अत्र कार्यं किम्
कार्यं कुकिङ्ग्
शालां गतः
सः पाकशालां गतः तदेव कार्यम् अधुना अधुना यतः योजयित्वा वाक्यं परिवर्तयतु
वल्लवः सोरि भीमः पाकशालां गतः यतः भीमः पाके आसक्तः
भीमः वल्लवः भूत्वा पाकशालां गतः यतः इत्युक्ते किमर्थं चेत् भीमः पाके आसक्तः अतः उत्तमम् अत्र वाक्येषु अतः योजयित्वा लिखितमस्ति किन्तु अस्माकं कार्यं किं तस्य परिवर्तनं कृत्वा यतः इति योजयित्वा पुनः तदेव वाक्यं लेखनीयं द्वितीयं करोतु
धर्मराजः दूते इच्छुकः धर्मराजः दूते इच्छुकः अतः सः कङ्कः भूत्वा दूतेन क्रीडति अतः सः कङ्कः भूत्वा दूतेन क्रीडति
किञ्चित् वदामि धर्मराजः इति वयं जानीमः एव धर्मराजः इति तस्य अन्यनाम अस्ति युधिष्ठिरः युधिष्ठिरः तस्य आसक्तिः कुत्र अस्ति द्यूते इच्छुकः वयं जानीमः इच्छति इति पदम् अथवा इच्छा इत्युक्ते विश् अथवा सः तस्य आसक्तिः कुत्र अस्ति द्यूतक्रीडायां तस्य आसक्तिः अस्ति धर्मराजस्य आसक्तिः द्यूतक्रीडायाम् अस्ति अतः सः किं कृतवान् कङ्कः भूत्वा द्यूतेन क्रीडति कङ्कः इत्युक्ते तत्र महाभारते एतत् सर्वम् अस्ति द्यूतक्रीडां क्रीडति कङ्कः इत्युक्ते प्रेटेण्डेड् ब्राह्मिन् धर्मराजः तु क्षत्रियः किन्तु सः ब्राह्मणः भूत्वा विराटनगरं गत्वा तत्र द्यूतक्रीडां क्रीडति अत्र पश्यन्तु क्रीड्धातुः अकर्मकधातुः अतः अस्मिन् वाक्ये कर्मपदं नास्ति द्यूतेन क्रीडति इति वक्तव्यं द्यूतं क्रीडति इति न वक्तव्यम् अत्र क्रीड्धातुः अकर्मकः अस्ति इति कृत्वा द्यूतेन क्रीडति परन्तु पूर्वस्मिन् वाक्ये गतः गम् धातोः रूपं गतः अतः तत्र पाकशालां गतः तत्र कर्मपदम् अस्ति अत्र वयं जानीमः एव भूत्वा इति श्वा प्रत्ययान्तरूपम्. अधुना परिवर्तनं करोतु वाक्यम्.
ओके. धर्मराजः कङ्कः भूत्वा दूतेन क्रीडति यतः धर्मराजः दूते इच्छुकः.
उत्तमम्. अत्र कारणं किम्?
कारणं दूते इच्छुकः.
कार्यं?
कार्यं कङ्कः भूत्वा दूतेन क्रीडति.
उत्तमम्. तदेव उत्तमं महोदय, धन्यवादः. कादम्बरी भगिनी भवती पठतु तृतीयं वाक्यम्.
अर्जुनः सङ्गीतप्रियः अतः बृहन्नला भूत्वा नृत्यं सङ्गीतं च पाठयति.
अत्र किञ्चित् वदामि. भवती जानाति वा अर्जुनः कः इत्युक्ते? पाण्डवेषु मध्यमः, तृतीयः एव अर्जुनः. अर्जुनः कीदृशः? अर्जुनस्य आसक्तिः सङ्गीते अस्ति. यदा भवती सङ्गीतं पठति तादृशरीत्या एव, सङ्गीतं गायति तादृशरीत्या एव अर्जुनः अपि सङ्गीतप्रियः. अत्र अर्जुनस्य विशेषणम् एव सङ्गीतप्रियः इत्युक्ते सः सर्वदा सङ्गीतं श्रोतुमिच्छति अथवा गातुमिच्छति अर्जुनः. अतः सः किं कृतवान्? महाभारते बृहन्नला भूत्वा नृत्यं सङ्गीतं च पाठयति. तत्र पठति न, पश्यतु अत्र पाठयति, उत्तरां पाठयति. तत्र महाभारते उत्तरा नाम्ना एका बालिका अस्ति, तां बालिकां पाठयति बृहन्नला भूत्वा. कः? अर्जुनः. इत्युक्ते तस्मिन् महाभारते अर्जुनस्य नाम एव बृहन्नला. बृहन्नला भूत्वा सः सङ्गीतं पाठितवान्. अधुना परिवर्तयतु वाक्यम्.
अस्तु. अर्जुनः बृहन्नला भूत्वा नृत्यं सङ्गीतं च पाठयति यतः अर्जुनः सङ्गीतप्रियः.
उत्तमम्. अत्र सः किमर्थं सङ्गीतम् अपि च नृत्यं पाठयितुं शक्तवान् इत्युक्ते सः सङ्गीतप्रियः, सः स्वयं सङ्गीतम् इच्छति. अतः अत्र सङ्गीतम् इति पदमस्ति. सङ्गीतम् इति पदमपि समस्तपदं. तत्र कथं वक्तव्यं? सम्यक् गीतं सङ्गीतं. सम्यक् गीतं सङ्गीतं, तत्र सम् इति उपसर्गः अस्ति, किन्तु विग्रहवाक्यं सम्यक् गीतं सङ्गीतम् इति वक्तव्यम्. अग्रे गत्वा वयम् एतत् सर्वं पठिष्यामः. बृहन्नला इति पदमपि समस्तपदमस्ति. तत्र बृहत् योगः नला, तत्र तकारस्य स्थाने नकारः आगच्छति, नकारः. तदर्थमेव अत्र बृहन्नला, अर्जुनस्य नाम बृहन्नला. महाभारते तत्र यदि वयं महाभारतं पठामश्चेत् तत्र विराटपर्वः नाम्ना एकः पर्वः अस्ति, तस्मिन् अर्जुनस्य नाम. उत्तमं. चतुर्थं करोतु.
नकुलाय अश्वचालनं रोचते अतः दामक्रन्तिः भूत्वा अश्वपालकः अभवत्.
उत्तमम्. चतुर्थः पाण्डवेषु चतुर्थः नकुलः. अत्र पश्यतु नकुलाय इति दत्तमस्ति. कीदृशं रूपम्? कोऽपि वदतु, विभक्तिः का?
चतुर्थी.
चतुर्थी.
उत्तमम्. उत्तमं, चतुर्थीविभक्ति. अत्र किमर्थं चतुर्थीविभक्तिः इत्युक्ते, पश्यन्तु अत्र रोचते इति पदमस्ति. यत्र कुत्रापि रोचते इति पदमस्ति चेत् तत्र साधारणतया चतुर्थीविभक्तिरूपं पश्यामः तत्र तस्मिन् वाक्ये. नकुलाय रोचते, नकुलाय किं रोचते? अश्वचालनं रोचते. इत्युक्ते अत्र रुच् धातुः अस्ति, रुच् धातोः रूपमेव रोचते. साधारणतया वयं शृणुमः एकं पदं रुचिः इति पदं वयं शृणुमः, रुचिः इति पदं रुच् धातोः रूपं, किन्तु लट्लकाररूपं रोचते. अत्र आत्मनेपदीरूपम् अस्ति इति कृत्वा रोचते इति पदमस्ति. रोचते इति पदम् अकर्मकधातुः, अतः अत्र नकुलाय रोचते. किं रोचते? अश्वचालनं रोचते. अश्वचालनम् इत्युक्ते अश्वानाम्, अश्वः इत्युक्ते किं भगिनि वदतु? हार्स् रैडिङ्ग्. अश्वचालनम् इत्युक्ते नकुलस्य आसक्तिः अश्वचालने अस्ति, सः अश्वचालनम् इच्छति, अतः सः दामग्रन्थिः भूत्वा अश्वपालकः अभवत् महाभारते. नकुलस्य नाम एव दामग्रन्थिः, भीमस्य नाम वल्लवः, धर्मराजस्य नाम कङ्कः, अर्जुनस्य नाम बृहन्नला, नकुलस्य नाम दामग्रन्थिः. सः दामग्रन्थिः इति नाम्ना अश्वपालकः अभवत्. किमर्थम् इत्युक्ते तस्य अश्वचालने आसक्तिः अस्ति, तस्मात् कारणात् सः अश्वपालकः भूत्वा कार्यं कृतवान्, विराटमहाराजस्य आस्थाने कार्यं कृतवान् नकुलः. अधुना परिवर्तनं करोतु.
अस्तु. दामग्रन्थिः भूत्वा अश्वपालकः अभवत्, यतः नकुलाय अश्वचालनं रोचते.
उत्तमम्. यतः नकुलाय अश्वचालनं रोचते. उत्तमं भगिनी. अधुना लक्ष्मी भगिनी भवती पठतु अग्रिमं वाक्यं.
सः देवस्य गोपालने अभिरुचिः, अतः तन्तिपालः भूत्वा गोपालकः अभवत्.
स्वस्य वाक्यैः वदतु, भवती किम् अवगतवती वाक्यस्य पठनेन?
सः देवस्य अभिरुचिः गोपालने,
इत्युक्ते सहदेवः गोपालनं. गोपालनम् इत्युक्ते अत्र धेनोः, टेकिङ्ग् केर् आफ् क्यौस्, धेनोः पालनं सः इच्छति. तस्य अभिरुचिः, अभिरुचिः इत्युक्ते आसक्तिः, टेस्ट् अस्ति, अतः सः तन्तिपालः भूत्वा गोपालकः अभवत्. इत्युक्ते तस्य नाम तन्तिपालः, अपि च सः तत्र महाभारते विराटपर्वे गोपालनं कृतवान् सहदेवः. अधुना परिवर्तयतु.
सः देवः तन्तिपालः भूत्वा गोपालकः अभवत्, यतः सः देवस्य गोपालने अभिरुचिः.
उत्तमम्, उत्तमम्. अत्र अभिरुचिः इति अत्र अभि इति उपसर्गः, रुचिः, रुचिः इति पदं रुच् धातोः रूपमेव रुचिः, किन्तु तस्य लट्लकाररूपं रोचते, किन्तु धातुः अस्ति रुच् धातुः. अभवत् वयं जानीमः अभवत् इति लङ्लकाररूपं. तस्य तत्र धातुः कः वदति वा भगिनि? भूधातुः, भूधातोः रूपं, साधारणलट्लकाररूपं भवति. किन्तु अत्र भूत्वा, भूत्वा इति क्त्वान्तरूपं भूधातोः क्त्वान्तरूपं भूत्वा लट्लकाररूपं भवति, किन्तु लङ्लकाररूपम् इत्युक्ते भूतकालरूपम् अभवत्. अग्रिमं करोतु.
द्रौपदी केशकर्मणि कुशला, अतः सैरन्ध्री भूत्वा सुदेष्णां सेवते.
अत्र द्रौपदी तस्य कीदृशं पदम्? स्त्रीलिङ्गपदम्. उत्तमम्. ईकारान्तस्त्रीलिङ्गपदम्. यथा नदी शब्दवत् नदी तथा एव द्रौपदी कुशला. कुशला इत्युक्ते सा बहु सम्यक् जानाति. द्रौपदी सम्यक् रीत्या जानाति. किं जानाति? केशकर्मणि. केशकर्मणि सा कुशला इत्युक्ते सा सम्यक् रीत्या केशप्रसाधनं कर्तुं शक्तवती. सम्यक् रीत्या शीस् ए वण्डर्फुल् हेर् स्टैलिस्ट्. उत्तमं. केशकर्मणि कुशला का? द्रौपदी. द्रौपदी तस्याः कुशलता कुत्र अस्ति? केशकर्मणि अस्ति. तदर्थं सा किं कृतवती? सैरन्ध्री भूत्वा इत्युक्ते तस्य नाम अपि परिवर्तनं कृतवती. तदा महाभारते तस्याः नाम सैरन्ध्री. सा द्रौपदी सैरन्ध्री भूत्वा सुदेष्णां सेवते. अत्र सेव्धातोः रूपं सेवते, आत्मनेपदीरूपम्. आत्मनेपदी इत्युक्ते साधारणतया ती अस्ति चेत् परस्मैपदं. क्रीडति, गच्छति, खादति तादृशरीत्या रूपाणि सन्ति चेत् परस्मैपदिनः. सेवते, वन्दते, वर्तते, तत्र ते तादृशरीत्या रूपाणि सन्ति चेत् आत्मनेपदीरूपं. द्रौपदी सुधेष्णां सेवते. सुधेष्णा इत्युक्ते तस्य सा महाभारते विराटराजस्य पत्नी. पत्न्याः नाम अस्ति सुदेष्णा. सुदेष्णां सेवते द्रौपदी. उत्तमम्. अत्र परिवर्तनं करोतु.
द्रौपदी सैरेन्द्री भूत्वा सुदेष्णां सेवते, यतः द्रौपदी केशकर्मणि कुशला.
उत्तमम्. अग्रिमम्.
कर्णः शप्तः आसीत्, अतः ब्रह्मविद्यां विस्मृतवान्.
एतदपि महाभारते एव अस्ति. कर्णः अस्ति. कर्णः शप्तः आसीत्. शप्तः इत्युक्ते शापं प्राप्तवान् सः. कर्णः शापं शपति इति क्रियापदमस्ति. शापः, शापं प्राप्तवान्. तदर्थं सः ब्रह्मविद्यां विस्मृतवान्. स्मरति वयं जानीमः स्मृधातोः रूपं स्मरति, किन्तु तवत् रूपं स्मृतवान्, स्मृतवती. रिमेम्बर्. किन्तु अत्र किं दत्तमस्ति? विस्मृतवान्. विस्मृतवान् इत्युक्ते फर्गात्. उत्तमं. सः शप्तः आसीत्. अत्र कर्णः शप्तः. शप्तः इति क्तान्तरूपं, क्ताप्रत्ययान्तरूपम्. आसीत् एकवारं वदति वा भगिनि? आसीत् कीदृशं रूपम्? उत्तमम्. पास्ट् टेन्स्, भूतकालः. उत्तमम्. अस् धातोः रूपम् अस्ति. अस्ति इति लट्लकाररूपं, किन्तु आसीत्. आसीत्, आस्ताम्, आसन् तादृशानि रूपाणि प्रथमाविभक्त्यन्तरूपाणि भूतकालार्थे. भूतकालार्थम् इत्युक्ते लङ्लकाररूपम् अस्ति. सः कः शपितवान् इत्युक्ते परशुरामः. परशुरामः तत्र कर्णं शपति, अतः सः ब्रह्मविद्यां विस्मृतवान्. अत्र कारणं किं, कार्यं किम् अभवत्?
कार्यम् इस् ब्रह्मविद्यां विस्मृतवान्. कारणम् इस् कर्णं शपतः आसीत्.
सः शप्तः आसीत्, तदेव कारणं. तदर्थमेव सः ब्रह्मविद्यां विस्मृतवान्. He forgot all the ब्रह्मविद्या. उत्तमम्. अन्तिमं वाक्यं.
युद्धे बन्धून् दृष्टवान्, अतः अर्जुनः विषण्णः जातः.
इत्युक्ते अत्र वयं सर्वे जानीमः भगवद्गीता अत्र महाभारते भगवान् श्रीकृष्णः अर्जुनं बोधयति. किं बोधयति? भगवद्गीतां बोधयति. कदा बोधयति इत्युक्ते यदा अर्जुनः युद्धरङ्गम् आगतवान् तदा सः सर्वान् बन्धून् दृष्टवान्. तदनन्तरं सः विषण्णः जातः. अत्र विषण्णः इति पदमस्ति, नूतनं पदं. तत्र क्ताप्रत्ययान्तरूपम् इति वदामः. वि उपसर्गपूर्वकः, सीद् धातुः. विषादः इति वयं जानीमः. विषादः विषण्णः इत्युक्ते विषादं प्राप्तवान् इत्युक्ते सः दुःखितवान्. युद्धरङ्गम् आगत्य सर्वान् बन्धून् दृष्ट्वा सः दुःखम् अनुभूतवान्. तदा श्रीकृष्णः किं करोति? भगवद्गीताम् उपदिष्टवान्, उपदिशति सः. अतः अत्र विषण्णः जातः, जन् धातोः रूपमेव जातः, विषण्णः इति क्तान्तरूपम्. अर्जुनः कीदृशः? विषण्णः इत्युक्ते विषादम् अनुभूतवान्. किमर्थं? सः युद्धे बन्धून् दृष्ट्वा चिन्तितवान्. किमर्थम् एतत् युद्धं करोमि, अहं युद्धं कर्तुं न इच्छामि, एतत् सर्वं सः वदति. तदा कृष्णः भगवद्गीतां बोधयति. अधुना परिवर्तयतु.
अर्जुनः विषण्णः जातः यतः युद्धे बन्धून् दृष्टवान्.
यतः युद्धे बन्धून् दृष्टवान्. उत्तमं भगिनि, धन्यवादः. साई कृष्णमहोदय, भवान् पठतु अग्रिमम्.
एषा बालिका स्वस्था यतः.
अत्र महोदय, अत्र उच्चैः पठत जानीत च इति लिखितमस्ति. अत्र पठत जानीत रूपं किम्?
पठत जानीत लोट् लकार.
लिङ्गं क्षम्यतां, पुरुषः कः? वचनं किम्?
एकवचनं मध्यमपुरुष.
मध्यमपुरुष सम्यक् एव.
एकवचनं उत्तमपुरुष.
सम्यक् नास्ति महोदय. पठत जानीत, एकवारं चिन्तयतु. पठत जानीत इत्युक्ते अत्र मध्यमपुरुष सम्यक् एव, लोट् लकारः सम्यक्, तत्र बहुवचनं मध्यमपुरुषबहुवचनं. कथं वक्तव्यं? पठतु पठतां पठन्तु, पठ पठतं पठत, पठानि पठाव पठाम, तादृशरीत्या रूपाणि भवन्ति. इत्युक्ते अत्र पठत अपि च जानीत एतत् पदद्वयमपि मध्यमपुरुष लोट्लकार बहुवचनरूपम्. उत्तमम्. अत्र किं दत्तमस्ति? चित्रमस्ति, अपि च एकम् उदाहरणं लिखितमस्ति. प्रकोष्ठे अन्धकारः नास्ति. वदतु अत्र.
प्रकोष्ठे अन्धकारः नास्ति यतः दीपः ज्वलति. प्रकोष्ठे दीपः ज्वलति अतः अन्धकारः नास्ति.
अन्धकारः नास्ति इत्युक्ते अत्र पूर्वस्मिन् वाक्ये पूर्वतनवाक्येषु तत्र अतः योजयित्वा परिवर्तनं कृतवन्तः वयं, किन्तु अत्र वस्तुतः वाक्यानि सर्वाणि अपि यतः योजयित्वा लिखितानि सन्ति. अत्र किमपि परिवर्तनं नास्ति, केवलम् अत्र यद्दत्तमस्ति तद् पठामश्चेत् सम्यक् एव. अत्र कारणं किं, कार्यं किम् अस्मिन् वाक्ये?
कारणं अन्धकारः नास्ति. कार्यं दीप कारणम् अन्धकारः नास्ति, कार्यं दीपः ज्वलति.
दीपः ज्वलति इति कारणतः तत्र अन्धकारः नास्ति.
ओ
नो चेत् तत्र दीपः नास्ति, दीपः न ज्वलति, तदा अन्धकारः भवति एव. अतः तत्र दीपः ज्वलति इति कारणतः तत्र अन्धकारः नास्ति.
ओके
उत्तमम्. अग्रिमम् अत्र वाक्यानि पठतु.
एषा बालिका स्वस्था यतः एषा प्रतिदिनं भ्रमणं करोति.
किम् अवगतवान्? स्वस्था वयं साधारणतया शृणुमः स्वास्थ्यं, स्वास्थ्यम् आरोग्यं, तस्मिन् अर्थे अत्र बालिकायाः विशेषणमस्ति. बालिका स्वस्था इत्युक्ते बालिकायाः आरोग्यं सम्यक् अस्ति. अत्र पश्यन्तु वाक्यम् एषा सर्वनाम वदतु.
एषा स्त्रीलिङ्गं, एतत् एतत् स्त्रीलिङ्गम्. एषा बालिका स्वस्था यतः एषा प्रतिदिनं भ्रमणं करोति.
इत्युक्ते
भ्रमणं करोति कार्यं. बालिका स्वस्था कारणम्.
अत्र विरुद्धरीत्या उक्तवान् महोदय. अत्र पश्यतु, एकवारं चिन्तनं कुर्मः. एका बालिका अस्ति, सा तस्याः आरोग्यं सम्यक् अस्ति, सा स्वस्था. किमर्थम् इत्युक्ते सा बालिका प्रतिदिनं भ्रमणं करोति. भ्रमणं करोति इत्युक्ते सम्यक् इतस्ततः चलति, बहुदूरं चलति. तदर्थमेव तस्याः आरोग्यं सम्यक् उत्तमरीत्या. तत्र कारणं किमस्ति इत्युक्ते सा प्रतिदिनं भ्रमणं करोति इति कारणतः सा स्वस्था. अग्रिमं करोतु.
एषः बालकः अपि स्वस्थः यतः एषः अपि प्रातः भ्रमणं करोति. एषः प्रातः भ्रमणं करोति अतः एषः बालकः अपि स्वस्थः.
उत्तमम्. अतः योजयित्वा वदामश्चेत् एषः बालकः अपि प्रातः भ्रमणं करोति, अतः सः बालकः एषः बालकः अपि स्वस्थः. अत्रापि यदि वयम् इच्छामश्चेत् अतः योजयित्वा अपि एतानि वाक्यानि परिवर्तयितुं शक्नुमः. अत्र प्रथमं वाक्यं स्वीकृत्य परिवर्त्य लिखामश्चेत् एषा बालिका प्रतिदिनं भ्रमणं करोति, अतः
एषा बालिका स्वस्था.
उत्तमं. यतः अत्र लिखितमस्ति. तृतीयं करोतु.
दीपः न ज्वलति यतः विद्युत् नास्ति. विद्युत् नास्ति अतः दीपः न ज्वलति.
उत्तमं, धन्यवादः.
विद्युत् नास्ति कारणं, दीपः न ज्वलति कार्यम्.
उत्तमम्. अधुना अत्र राजीव् सिङ्ग् महोदय भवान् पठतु अग्रिमं वाक्यम्.
आं भगिनि, अहम् अभ्यासं करोमि यतः सम्यक् संस्कृतं वक्तुम् इच्छामि. सम्यक् संस्कृतं वक्तुम् इच्छामि अतः अहम् अभ्यासं करोमि.
यद् भवान् चिन्तयति तदेव अत्र लिखितमस्ति महोदय. भवान् यद् मनसि चिन्तयति, भवान् यद् मनसि चिन्तयति तदेव अत्र लिखितमस्ति. अहं संस्कृतं वक्तुम् इच्छामि अतः अहम् अभ्यासं करोमि. उत्तमम्. अग्रिमं करोतु.
वयम् एव परिवेषणं कुर्मः यत् अद्य अस्माकं पर्यायः अस्ति. अद्य अस्माकं पर्यायः अस्ति अतः वयं परिवेषणं कुर्मः.
अत्र पश्यन्तु एकं नूतनं पदमस्ति, परिवेषणम्. परिवेषणम् इत्युक्ते कोऽपि जानाति वा? सर्विङ्ग्, सर्विङ्ग् द फुड्, सर्विङ्ग् द फुड् इति वदामश्चेत् किञ्चित् परिवेषणं कुरु, किञ्चित् परिवेषयतु, अन्नं परिवेषयतु अथवा किञ्चित् किमपि शाकं परिवेषयतु. परिवेषणम् इत्युक्ते सर्विङ्ग्
द फुड्.
सर्विङ्ग् द फुड्. वयमेव परिवेषणं कुर्मः. वयम् इति पदमस्ति अत्र, अतः कुर्मः. वयं परिवेषणं कुर्मः किमर्थम् इत्युक्ते अद्य अस्माकं पर्यायः इत्युक्ते इट् इस् अवर् टर्न्. अतः अद्य अस्माकं पर्यायः अस्ति अतः वयमेव परिवेषणं कुर्मः. उत्तमम्. अत्र अद्य अहमेकं वाक्यं वदामि. अद्य बुधवासरः अस्ति यतः ह्यः मङ्गलवासरः आसीत्. भवान् वदतु अत्र भवान् किम् अवगतवान्?
Today is Wednesday because yesterday was Tuesday.
उत्तमं. भवान् एकं वाक्यं वदतु अत्र. अद्य मङ्गलवासरः अस्ति वदतु.
यतः वहां सोमवारः आसीत्.
ह्यः सोमवासरः आसीत् अथवा अद्य मङ्गलवासरः अस्ति यतः श्वः बुधवासरः भविष्यति. अत्र भविष्यति, आसीत् लङ्लकाररूपं, भविष्यति अस् धातोः भविष्यत्कालरूपम्. अत्र अवधेयम् इति लिखितमस्ति. अत्र पठतु अवधेयं किम्.
अत्र वाक्येषु कार्यवाक्यं प्रथमम् उक्तं, कार्यवाक्यं च अनन्तरं. यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति. उदाहरणम्, अहम् उष्णजलं पातुम् इच्छामि यतः अद्य शैत्यम् अस्ति.
अत्र पश्यतु अवधेयं, वन् शुड् रिमेम्बर् दिस्. किमित्युक्ते अत्र अस्मिन् पुटे वाक्येषु कार्यवाक्यं प्रथमम् उक्तम् इत्युक्ते प्रथमं वाक्यं कार्यवाक्यं, द्वितीयं वाक्यं कारणवाक्यम्, अनन्तरं कारणवाक्यं लिखितमस्ति. अत्र एतेषु वाक्येषु यतः इति पदम् उपयुज्य वाक्यानि लिखितानि सन्ति. यतः इति अव्ययपदम्, यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति. इत्युक्ते अत्र कारणवाक्यं द्वितीयवाक्यं, द्वितीयवाक्येन सह अत्र यतः इति अव्ययस्य प्रयोगः कृतः. अत्र उदाहरणत्वेन एकं वाक्यं लिखितमस्ति. किम्? अहम् उष्णजलं पातुमिच्छामि. किमर्थम् इत्युक्ते यतः अद्य शैत्यमस्ति. शैत्यं वयं जानीमहेव, शीतकालः, शीतस्य भावः शैत्यं, तथा तद्धितप्रत्ययान्तरूपम् इति वदामः. शीतस्य भावः शैत्यम्, उष्णस्य भावः औष्ण्यम्, मधुरस्य भावः माधुर्यं, तादृशरीत्या पदानि निष्पन्नानि भवन्ति. अत्र अद्य शैत्यमस्ति अतः उष्णजलं पातुमिच्छामि इति इतः योजयित्वा. उत्तमम्. अधुना अत्र शीघ्रं समापयामः. अग्रिमे करपत्रे किम् अस्ति? लक्ष्मी भगिनी किञ्चित् शीघ्रं पठतु अत्र द्वितीये करपत्रे.
यथोदाहरणं चतः योजयित्वा पठतु.
यथोदाहरणं यतः योजयित्वा पठत.
उदाहरणं सः पञ्च वस्त्राणि धृतवान् यतः तत्र शैत्यम् अस्ति. कृष्णः गीतम् उपदिष्टवान् अर्जुनः ईषण्णः.
इत्युक्ते अत्र एकवारं वदामि. अत्र प्रथमं वाक्यं सः पञ्चवस्त्राणि धृतवान्. हि वोर् फैव् डिफ्रेण्ट् क्लोत्स्. सः पञ्चवस्त्राणि धृतवान् किमर्थं? तत्र बहु शैत्यमस्ति अतः. तत्र बहु शैत्यमस्ति अतः पञ्चवस्त्राणि धृतवान्. अतः योजयित्वा वदामश्चेत्, किन्तु यतः योजयित्वा वदामश्चेत् तत्र कारणवाक्येन सह यतः योजितमस्ति. सः पञ्चवस्त्राणि धृतवान् कार्यं, कारणं तत्र शैत्यमस्ति अतः. तथा एव प्रथमवाक्यं करोतु. कृष्णः भगवद्गीताम् उपदिष्टवान् यतः. किमर्थम् उपदिष्टवान्?
यतः अर्जुनः विषण्णः.
अर्जुनः विषादम् अनुभूतवान् अतः. अपि च द्वितीयं,
रोगमुक्तः भवति सः योगम् अनुसरति. योगमुक्तं भवति यतः सः योगम् अनुसरति.
उत्तमम्. इत्युक्ते एकः पुरुषः अस्ति, सः नित्यं योगाभ्यासं करोति, योगम् अनुसरति इत्युक्ते योगाभ्यासं करोति. अतः एव, तदर्थमेव सः रोगमुक्तः भवति. इत्युक्ते सः रोगात् मुक्तः इत्युक्ते सः सम्यक् आरोग्यं प्राप्तवान्. रोगमुक्तः इत्युक्ते तस्य अनारोग्यम् अधुना अनारोग्यं नास्ति. सः योगम् अनुसरति इति कारणतः, तदर्थमेव रोगमुक्तः भवति यतः सः योगम् अनुसरति. तृतीयम्,
अभ्यासेन मनः गृह्णते तत् धुनिर्गृहं चलम्.
अत्र पश्यतु, अत्र वाक्यमस्ति मनः. मनः इत्युक्ते मैण्ड्, अस्माकं मनः, मनः अस्ति. अभ्यासेन मनः गृह्यते. अत्र गृह्यते इति पदमस्ति. वयं साधारणतया गृह्णाति इति पदं शृणुमः. ग्रहधातोः रूपं गृह्णाति, किन्तु अत्र कर्मणि लट् लकाररूपमस्ति. गृह्यते इति कर्मणि लट् रूपं. मनः गृह्यते कथम्? अभ्यासेन. By practice only you can control your mind. इति अर्थः. अभ्यासेन मनः गृह्यते. किमर्थं तथा अभ्यासः आवश्यकः इत्युक्ते मनः दुर्निग्रहं चलम्. मनः चञ्चलम् अपि च दुर्निग्रहं, निग्रहं कर्तुं बहु कष्टम्. परन्तु तस्य निग्रहणं कर्तुं शक्नुमः. कथम् अभ्यासेन बै प्राक्टीस् अभ्यासेन मनः गृह्यते यतः तत् दुर्निग्रहं चलम् अत्र पश्यन्तु दुर्निग्रहं चलं तत् एतानि पदानि नपुंसकलिङ्गपदानि किमर्थं नपुंसकलिङ्गपदानि दत्तानि इत्युक्ते मनः इति पदं नपुंसकलिङ्गपदं कथं मनः इति पदं सकारान्तपदं हलन्तपदं दन्त्यसकारान्तपदं तस्य रूपाणि कथं भवन्ति मनः मनसि मनांसि शिरः शिरसि शिरांसि तादृशरीत्या मनः शब्दः अपि सकारान्तपदं नपुंसकलिङ्गपदम् अतः मनः दुर्निग्रहं मनः चलम् अपि च तस्य विशेषणमेव तत् तत् इति नपुंसकलिङ्गपदम् अभ्यासेन मनः गृह्यते इति लिखितमस्ति उत्तमं कादम्बरी भगिनी भवती पठतु अग्रिमं वाक्यम्
अस्तु अभ्यासेन मनः गृह्यते तत् दुर्निग्रहं चलम्
वयं कृतवन्तः तद्वाक्यम् अभवत् अभ्यासेन मनः गृह्यते यतः तत् दुर्निग्रहं चलं चतुर्थं करोतु
अहं ते दिव्यं चक्षुः ददामि अनेन स्वचक्षुषा मां द्रष्टुं न शक्यते
शक्यसे इति लिखितमस्ति किञ्चित् पश्याम अहं ते दिव्यं चक्षुः ददामि अहम् इति वयं जानीमः अस्मत् शब्दः ते ते इत्युक्ते अत्र चतुर्थी विभक्त्यन्तरूपं तुभ्यं ते इत्युक्ते तुभ्यं युष्मत्शब्दः दिव्यं चक्षुः ददामि एकवारम् अत्र दिव्यं चक्षुः ददामि इति लिखितमस्ति अत्र अस्मिन् वाक्ये चक्षुः इति कर्मपदं द्वितीयविभक्त्यन्तरूपं किन्तु चक्षुः इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र चक्षुः इति लिखितमस्ति चक्षुष् षकारान्तपदं मूर्धन्यषकारान्तपदं चक्षुष् इति प्रातिपदिकं मूलरूपं चक्षुष् इति अस्ति किन्तु नपुंसकलिङ्गपदं दिव्यं चक्षुः ददामि कः वदति श्रीकृष्णः वदति अर्जुनं प्रति अर्जुन अहं भवते दिव्यं चक्षुः ददामि अनेन स्वचक्षुषा मां द्रष्टुं न शक्यते अत्र विश्वरूपं दर्शयति कृष्णपरमात्मा किन्तु तदा कृष्ण श्रीकृष्णः वदति भवान् स्वचक्षुषा मां द्रष्टुं न शक्नोति अत्र शक्यसे इति पदमस्ति शक्यसे इति पदं मध्यमपुरुषरूपं शक्यते इति प्रथमपुरुषरूपं किन्तु मध्यमपुरुषरूपं दत्तमस्ति परिवर्तनं करोतु भगिनि
अस्तु अनेन स्वचक्षुषा मां दृष्टं न शक्यसे यतः अहं ते दिव्यं चक्षुः ददामि
इत्युक्ते अत्र पश्यतु भवान् भवतः नेत्राणि सन्ति किन्तु भवान् स्वचक्षुषा मां द्रष्टुं न शक्नोति अतः दिव्यं चक्षुः ददामि इति वदति अत्र एतेषु वाक्येषु कथं वक्तव्यम् इत्युक्ते अहं ते दिव्यं चक्षुः ददामि यतः कारणं स्वचक्षुषा मां द्रष्टुं भवान् न शक्नोति अथवा न शक्यसे तथा वक्तव्यम्. अग्रिमं करोतु.
तव वचनं करिष्ये मोहः नष्टः.
अत्र अत्र पश्यतु, तव वचनं करिष्ये इत्युक्ते यद् भवान् वदति तदेव करोमि इति अर्जुनः वदति. तव वचनं, तव युष्मत्शब्दः, तत्र त्वं जानाति भवती, त्वं शब्दस्य षष्टिविभक्त्यन्तरूपं तव. तव वचनं करिष्ये, करिष्ये इति कीदृशं रूपं? क्रूधातोः आत्मनेपदिरूपम् अस्ति. करिष्यामि, साधारणतया वयं किं वदामः? अहं करिष्यामि इति वदामः. परस्मैपदिरूपं करिष्यामि, किन्तु आत्मनेपदिरूपं करिष्ये. तव वचनं करिष्ये किमर्थं? यतः मम मोहः नष्टः इति अर्जुनः वदति. अत्र यतः अत्र कारणमस्ति मोहः नष्टः. मम मोहः नष्टः, अतः तव वचनं करिष्ये. अत्र उत्तमं भगिनि. अधुना लक्ष्मी भगिनि भवती समापयतु अत्र त्रीणि वाक्यानि शीघ्रम्.
अहं ते हितं वक्ष्यामि, त्वं मे प्रियः. अहं ते हितं वक्ष्यामि यतः त्वं मे प्रियः.
इत्युक्ते एतद् वाक्यमपि अहं ते हितं वक्ष्यामि. ते इत्युक्ते तव, तव हितं वक्ष्यामि. वक्ष्यामि इति पदं तत्र वक्ष्यामि इति लृट् लकाररूपं, भविष्यत्कालरूपं. तव हितं वक्ष्यामि, ऐ एम् टेलिङ्ग् यू फर् युवर् बेनिफिट्. किमर्थं? यतः त्वं मे प्रियः. मे प्रियः तत्र मम प्रियः. मे इत्युक्ते तत्र विकल्पेन रूपद्वयमस्ति. अहं शब्दस्य षष्टिविभक्त्यन्तरूपं मे अथवा मम, मम प्रियः. अग्रिमं करोतु.
ऋषयः ब्रह्मनिर्वाणं लभ्यते, ते क्षीण कल्मषाः.
अत्र ऋषिः इति पदं वयं जानीमः. ऋषिः शब्दस्य रूपं ऋषयः. ऋषयः बहुवचनरूपं. ऋषयः ब्रह्मनिर्वाणं लभन्ते इत्युक्ते ब्रह्मज्ञानं प्राप्नुवन्ति. किमर्थं? ते क्षीणकल्मषाः. तत्र कल्मषाः इत्युक्ते तेषु मालिन्यं नास्ति, कल्मषं नास्ति इति कारणतः ऋषयः आत्मज्ञानं प्राप्तुं शक्नुवन्ति. अत्र कार्यमस्ति अपि च कारणमस्ति. ऋषयः कीदृशाः? ऋषयः क्षीणकल्मषाः. अतः ते ब्रह्मनिर्वाणं लभन्ते. उत्तमम्. अन्तिमं करोतु.
त्वं शोचितुं न अर्हसि, अयम् आत्मा अच्छेद्यः. यतः अयम् आत्मा अच्छेद्यः.
इत्युक्ते भगवद्गीतायां श्रीकृष्णः अर्जुनं प्रति वदति. किं वदति? त्वं, त्वम् इति मध्यमपुरुषरूपं. तदर्थमेव अत्र अर्हसि इति दत्तमस्ति. मध्यमपुरुष लट्लकाररूपं क्रियापदं. त्वम् अर्हसि. किं न अर्हसि? शोचितुं न अर्हसि इत्युक्ते शोकं कर्तुं न अर्हसि. भवान् शोकं मा करोतु इति कृष्णः, श्रीकृष्णः अर्जुनं प्रति वदति. अपि च इतोपि किं वदति? अयम् आत्मा अच्छेद्यः. आत्मनः छेदनं कर्तुं न शक्नुमः. आत्मा नित्यः. अतः आत्मनः छेदनं कर्तुम् अशक्यम्. आत्मा सर्वदा तिष्ठति. तदर्थं भवान् युद्धं करोतु, शोकं मा करोतु. शोचितुं न अर्हसि त्वम् इति कृष्णः वदति. उत्तमम्. इत्युक्ते इदानीं पर्यन्तं वयं यतः योजयित्वा एतानि वाक्यानि लिखितवन्तः, परिवर्तनं कृतवन्तः. अत्र अन्यः अभ्यासः अपि अस्ति, भवन्तः सर्वे गृहपाठरूपेण एतद् अभ्यासं कुर्वन्तु, अपि च यतः योजयित्वा अन्यानि वाक्यानि, स्वीयवाक्यानि लिखन्तु. अधुना अत्र समापयामः. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः.
धन्यवादः. नमस्कारः.